ओम अथ श्री लक्ष्मण कवचम अथ श्री मदानंद रामायणांतर्गत श्री लक्ष्मण कवचम अगस्त्युवाच सौमित्रीं दघुनायकस्य चरणद्वन्द्वीक्षणं श्यामलं बिभ्रान्तं स्वकरेण रामशिरसि क्षत्रं विचित्रं वरं बिभ्रान्तं रघुनायकस्य सुमहत् कोदण्डबाणासने तं वन्दे कमलेक्षणं जनकजा वाक्ये सदा तत्परम् अस्य श्रीलक्ष्मणकवचमन्त्रस्य अगस्त्य ऋषिः अनुष्टुपछन्ताः श्रीलक्ष्मणो देवता शेष इति बीजम् सुमित्रानन्दनः इति शक्तिः रामानुज इति कीलकम् रामदास इत्यस्त्रम् रघुवंशज इति कवचम् सौमित्रिरेति मन्त्राः श्रीलक्ष्मणप्रीत्यरथम् सकलमनोभिलषित सिद्धरथम् चपि विनियोगाः अथाङ्गुलीन्यासः ओम लक्ष्मणाय अंगुष्ठाभ्याम नमः ओम शेषाय तर्जनीभ्याम नमः ओम सुमित्रानन्दनाय मध्यमाभ्याम नमः ओम रामानुजाय अनामिकाभ्याम नमः ओम रामदासाय कनिष्ठिकाभ्याम नमः ओम रघुवंशजाय करतलकरपृष्ठाभ्याम नमः अथ हृदयादिन्यासः ओम लक्ष्मणाय हृदयाय नमः ओम शेषाय शिरसि स्वाहा ओम सुमित्रानन्दनाय शिखायै वसत ओम रामानुजाय कवचाय हुम ओम रामदासाय नेत्रत्रयाय वसत ओम रघुवंशजाय अस्त्राय पट ओम सौमित्राय इति दिग्बन्धः अथ ध्यानम् रामपृष्ठस्थं रम्यं रत्नकुण्डलधारिणं नीलोत्पलदलश्यामं रत्नकङ्कणमण्डितं रामस्य मस्तके दिव्यं बिभ्रन्तं छत्रमुत्तमं वरपीताम्बरधरं पुक्लीनादिशोभितं कूणिरेकार्मुके चापे बिभ्रन्तं च स्मिताननम् रत्नमालाधरं दिव्यं पुष्पमाला विराजितम् एवं ध्यात्मा लक्ष्मणञ्च राघवान्यस्तलोचनम् कवचम् जपनीयम् हि ततो भक्त्यात्र मानवैः ओम् लक्ष्मणः पातु मे पूर्वे दक्षिणे राघवानुजाः प्रदीचाम् पातु सौमित्रीः पातु दीचाम् रघुत्तमाः अधः पातु महावीरः चोर्ध्वम् पातु नृपात्मजः मध्ये पातु रामदासः सर्वतः सत्यपालकः स्मिताननः शिरः पातु भालम् पातोर्मिलाथवाः भ्रुवोर्मध्ये धनुर्धारी सुमित्रानन्दनोक्षिणी कपोले रममन्त्री च सर्वदा पातु वै मम कर्णमूले सदा पातु कबन्ता भुजगण्डनाः नासाग्रं मे सदा पातु सुमित्रानन्दवर्धनाः रामनस्ते क्षणः पातु सदा मेत्रमुखम् भुवि सीतावाच्यकरः पातु मम वाणीम् सदात्रहि सौम्यरूपः पातु जिह्वाम् अनन्तः पातु मे द्विजान् चिबुकम् पातु रक्षोग्नः कण्ठम् पात्वसुरार्दनाः कन्धौ पातु जितारातिः भुजौ पङ्कजलोचनाः करौ कङ्कणधारी च नखान् रक्तनखोवतु कुक्षिम् पातु विनित्रो मे वक्षः पातु जितेन्द्रियाः पार्श्वे राघव प्रीष्टिस्थ पृष्ठदेशम् मनोरमाः नाभिम् गम्भीरनाभिस्तु कटिम् च रिक्ममेखलाः भुय्यम् पातु सहस्राशः पातु लिङ्गम् हरिप्रियाः गुरु पातु विष्णुतल्पः सुमुखोऽवतु जानुनी नागेन्द्रः पातु मे जङ्घी गुल्फो नो कुर्वान् मम पादावङ्गद तातोऽव्यात् पात्वङ्गानि सुलोचनाः इति श्रीशतकोटि रामचरितान्तर्गतो श्रीमदानन्द रामायणे वाल्मीकीय मनोहरकाण्डे श्रीलक्ष्मणकवचम् सम्पूर्णम्।